वाचिका निधि तिवारी। आदौ मुख्याः वार्ताः। लोकसभायाः एकविंशति राज्यानां केन्द्रशासित प्रदेशानां च द्वयधिकैकशतं संसदीय क्षेत्रेभ्यः प्रथमचरणीय मतदानम् अभवत्। अद्यैव हि अरुणाचल सिक्किम प्रदेशाभ्यां विधानसभा निर्वाचनान्यपि अजायन्त। लोकसभा निर्वाचनस्य तृतीय चरणाय नामांकन प्रक्रिया अद्य सायं समये अवसीयते। भारतीय रेल विभागेन ग्रीष्मकालावधौ यात्रिणां संवर्धमानावश्यकतायै सौविध्याय च कीर्तिमत् संख्यायां अतिरिक्त रेलयानानि प्रचाल्यन्ते। अपि च अद्य लखनऊ एकाना क्रिकेट क्रीडांगणे आईपीएल इति क्रिकेट क्रीडामालिकायां लखनऊ सुपर जायंट्स दलं चेन्नई सुपर किंग्स इति दलेन सह संघर्षो विधास्यते। अथ वार्ताः विशदीकृत्य। लोकसभायाः प्रथमचरणीय मतदानं समजायत। अद्य सप्तदश राज्यानां द्वयधिकैकशत संसदीय क्षेत्रेभ्यः मतदानम् अभवत्। अद्यैव हि अरुणाचल सिक्किम प्रदेशाभ्यां विधानसभा निर्वाचनान्यपि अजायन्त। अधिकतया निर्वाचन क्षेत्रेषु मतदानम् अद्य प्रातः सप्तवादनतः समारब्धम्, संध्यायां षड्वादने च सम्पन्नम्। अस्मिन् प्रथमचरणे दश राज्यानां केन्द्रशासित प्रदेशानां च सर्वेभ्यः संसदीय क्षेत्रेभ्यः मतदानम् अभवत्। त्रिपुरा जम्मू कश्मीरयोः लोकसभा निर्वाचनाय चरणेऽस्मिन् पञ्चविंशत्यधिक षोडशशत प्रत्याशिनः सन्ति। अत्र प्रमुखेषु प्रत्याशिषु नितिनगडकरी, किरण रिजिजू, डॉ जितेन्द्रसिंह, संजीव बालिया, तमिलीसाई सौन्दर्यराजनादि सहितः जितिन प्रसादो अपि वर्तन्ते। इमे सर्वेपि भाजपादलीय नेतारः सन्ति। विपक्षतः च गौरव गोगोई, कार्ति चिदम्बरम्, नकुलनाथः च सन्ति। डीएमके पक्षतः दयानिधि मारणः एतेषां सर्वेषां भाग्यबिन्दवः सम्प्रति ईवीएम इति संयन्त्रे संगोप्यन्ते। अस्मिन् चरणे सार्धषोडश कोट्यधिकेभ्यः मतदातृभ्यः सार्धैकलक्षाधिकानि मतदानकेन्द्राणि निर्मितानि सन्ति। प्रायशः षट्त्रिंशल्लक्षाधिकाः पप्रथमीयाः मतदातारः प्रथमचरणेऽस्मिन् मतदानं कुर्वन्तः सन्ति। त्रिवादनपर्यन्तं प्रथमचरणीय मतदानं विभिन्नेषु क्षेत्रेषु चतुश्चत्वारिंशत्तः षट्षष्टि प्रतिशतं जातम्। उत्तराखण्डे प्रायशः चतुःपञ्चाशत् प्रतिशतम्, अरुणाचलप्रदेशे त्रिषष्टि प्रतिशतम्, मेघालये आहत्य सप्तति प्रतिशतम्, उत्तरप्रदेशे पञ्चपञ्चाशत् प्रतिशतम्, पश्चिमबंगाले सप्तसप्तति प्रतिशताधिकम्, छत्तीसगढ़े त्रिषष्टि प्रतिशत अधिकम्, मध्यप्रदेशे च आहत्य चतुष्षष्टि प्रतिशतम् मतदानम् पञ्चवादनपर्यन्तम् जातम्। लोकसभा निर्वाचनस्य प्रथमे चरणे येषां प्रत्याशीनां भाग्यनिर्णयो भविष्यति तेषु केन्द्रीय परिवहन राजमार्गमन्त्री नितिन गडकरी, यः नागपुरक्षेत्रात् निर्वाचन समारांगणे सन्ति, अपि च उत्तराखण्डस्य पूर्व मुख्यमन्त्री त्रिवेन्द्र सिंह रावतः हरिद्वारक्षेत्रात्, केन्द्रीय रक्षा राज्य पर्यटन मन्त्री अजय भट्टः नैनीताल उधमसिंहनगरात्, केन्द्रीय विधि न्याय मन्त्री अर्जुन राम मेघवालः राजस्थानस्य बीकानेर क्षेत्रात्, त्रिपुरायाः पूर्व मुख्यमन्त्री बिप्लव कुमार देव त्रिपुरा पश्चिम क्षेत्रात्, तमिलनाडु राज्यस्य भाजपा प्रमुखः के अन्नामलाई कोयम्बटूर लोकसभा क्षेत्रात्, तेलंगानायाः पूर्व राज्यपालः डॉ तमिलीसाई सौन्दर्यराजनः चेन्नई दक्षिण क्षेत्रात्, द्रमुक नेत्री कनिमोझी थुथुकुडी क्षेत्रात्, तमिलनाडोः पूर्व मुख्यमन्त्री ओ पनीरसेल्वमः रामनाथपुरम क्षेत्रात्, केन्द्रीय पशुपालन दुग्धोत्पादन राज्यमन्त्री संजीव बालिया उत्तरप्रदेशस्य मुजफ्फरनगर क्षेत्रात्, नकुलनाथः च मध्यप्रदेशस्य छिन्दवाड़ा क्षेत्राच्च निर्वाचनरणे सन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। लोकसभा निर्वाचनस्य तृतीयचरणाय नामांकन प्रक्रिया अद्य सायंकाले अवसीयति। अस्मिन् चरणे द्वादश राज्यानां केन्द्रशासित प्रदेशानाञ्च चतुर्णवति लोकसभासनेभ्यः मासस्य सप्तमे दिनांके मतदानं भविष्यति। नामांकन निरीक्षणं श्वो भविष्यति। तत्रैव प्रत्याशिनां नामांकन प्रत्यावर्तनस्य अन्तिमं दिनं सोमवासरम् अस्ति। ह्यः लोकसभा निर्वाचनस्य चतुर्थ चरणाय नामांकन प्रवेश प्रक्रिया समारब्धा। नव राज्यानां केन्द्रशासित प्रदेशस्य च षण्णवति लोकसभासनेभ्यः मे मासस्य त्रयोदश दिनांके मतदानानि भविष्यन्ति। तद्वदेव आन्ध्रप्रदेशे पञ्चसप्तत्यधिकैकशतं आसनेभ्यः एकस्मै विधानसभा निर्वाचनाय, ओडिशायां च अष्टाविंशतिः आसनेभ्यः विधानसभा निर्वाचनस्य प्रथमचरणाय एका अधिसूचना प्रख्यापिता। लोकसभा निर्वाचनस्य अन्येभ्यः चरणेभ्यः नैर्वाचनिक प्रचार प्रसाराभियानं तीव्रं जातम्। प्रधानमन्त्री भाजपेति दलस्य च वरिष्ठ नेता नरेन्द्रमोदी अद्य उत्तरप्रदेशस्य अमरोहा जनपदस्य गजरौला क्षेत्रे एकं जनसमूहोपवेशनं सम्भाषितवान्। कांग्रेसाध्यक्षः मल्लिकार्जुन खरगेः बिहारस्य कटिहार क्षेत्रे एकं जनसमागमं सम्बोधितवान्। राजदनेता तेजस्वी प्रसाद यादवेन अद्य बांका संसदीय क्षेत्रस्य भैरोगंजस्थले एकं मार्ग प्रदर्शनं विहितम्। भारतीय रेलवे विभागेन ग्रीष्मकालावधौ यात्रिणां संवर्धमानावश्यकतायै सौविध्याय च कीर्तिमत् संख्यायाम् अतिरिक्त रेलयानानि प्रचाल्यन्ते। रेलविभागः एकादशाधिकैकशतोत्तर नवसहस्रं रेलयानानाम् अतिरिच्य संचालनं करिष्यति। एतादृशं संचालनं गतवर्षस्य ग्रीष्मसमयस्य अपेक्षायाम् अत्यधिकं वर्तते। रेलमन्त्रालयः संसूचितवान् यत् देशस्य प्रमुखगन्तव्यानि संयोज्यमानार्थम् अतिरिच्य रेलयानानां संचालनस्य योजना निर्मिता अस्ति। समाजवादी पार्टीति दलस्य नेता अखिलेश यादवः अद्य नोएडा इति क्षेत्रे नैर्वाचनिक जनसभाम् एकां सम्बोधितवान्। सः सम्बोधने उक्तवान् यत् राष्ट्रिय जनतान्त्रिक संघस्य इत्युक्ते एनडीए इत्यस्य मनसि कृषकाणां कल्याणस्य भावना नास्ति। तेनोक्तं यत् इन्डी इति दलसमूहेन सह तस्य दलस्य शासनं केन्द्रे सत्तासीनं भविष्यति चेत् उत्तरप्रदेशस्य विकासेन सह कृषकेभ्यः न्यूनतम समर्थन मूल्यमपि प्रदास्यति इति। ईरानदेशेन केन्द्रीय नगर इस्फहान इत्येतस्य निकटवर्तीषु क्षेत्रेषु वायुरक्षा प्रक्षेपास्त्राणि प्रक्षिप्तानि। सम्भाव्यते यत् प्रत्युत्तरे इजराइल देशीयाक्रमणं ड्रोनादिभिः तेहरान क्षेत्रे भविष्यतीति। प्रारम्भिक सूचनानुसारि सीरियायां ईरान दूतावासे कृताक्रमणस्य प्रत्युत्तरे इजराइल देशे ड्रोनाक्रमणस्य कश्चित् दिनानन्तरमेव इजराइल देशेन इस्फहान प्रान्ते ड्रोनाक्रमणं विहितमस्ति। अपि च क्रिकेट क्रीडायाम् अद्य लखनऊ इकाना क्रिकेट क्रीडांगणे आईपीएल इति क्रिकेट क्रीडा मालिकायां लखनऊ सुपर जायंट्स दलं चेन्नई सुपर किंग्स दलेन सह स्पर्धिष्यति। इयं स्पर्धा सायं सार्धसप्तवादने आरप्स्यते। मुंबई इंडियंस दलेन पंजाब किंग्स दलं ह्यः रात्रौ चंडीगढ़नगरे नवधावनांकैः पराजितम् इति वार्ताः।